सर्वेभ्यो नमः, स्वागतम्। प्रथमतया वयं प्रार्थनां वदामः। लक्ष्मी भगिनी,
ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै तेजस्विनावधीतमस्तु, मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ। श्रीगुरुभ्यो नमः।
धन्यवादः भगिनि। इदानीं तत्र गृहपाठः आसीत्। तत्र गृहपाठः आसीत् विना परितः इति उपयुज्य वाक्यानि लिखत इति भवन्तः कृतवन्तः वा?
आं भगिनि।
अस्तु, वृन्दा भगिनी भवती वदतु।
विना भक्तः विना देवः च देवस्य विना भक्तः किमपि नास्ति।
पुनः वदतु भगिनि।
द सेण्टेन्स् फार् विना भक्तः विना देवः च देवस्य विना भक्तः किमपि नास्ति।
समीचीनं भगिनि।
उभयतः मार्गम् उभयतः दृष्ट्वा गच्छतु।
समीचीनम्।
परितः अध्यापिका परितः बालकाः सन्ति।
अध्यापिकां परितः
अध्यापिकां परितः बालकाः सन्ति।
समीचीनम्। अस्तु, इदानीं राधा भगिनी।
जनकं विना बालकः शालां न गच्छति।
समीचीनम्।
गृहम् उभयतः वृक्षाः सन्ति।
समीचीनम्।
उद्यानं परितः पुष्पाणि सन्ति।
समीचीनम्। अस्तु, वदतु भगिनि।
Is it repeating, echoing when I am talking, bhagini?
Na bhagini, na bhagini.
Mama gruham abhayataha, ubhayataha aparadita santi. Aparadita some plants, okay. So devalayaha vina.
देवालयं
विना मम जीवनं न समथिङ्ग् ऐ डिण्ट् फिनिश् दट् ओके देवीं विना शिवः शक्तिः न अभवत्। न शृणोति यु केन् से दट् शर्करां विना काफी न काफी रुचि न सुन्दरम् अस्ति
सुन्दरं नास्ति
कच्च कक्षा विना संस्कृतं पठनं न अभवत् कक्षां विना आर् टीचर् यु नो टीचर्
शिक्षिकां विना शिक्षिकां विना समीचीनम् अस्तु द्वितीयविभक्ते उभयतः विना परितः प्रश्नाः सन्ति वा तस्य विषये
भगिनी ऐ हेड् अ क्वश्चन् द फस्ट् सेण्टेन्स् दट् ऐ मेड् विना ऐ हेड् सेड् भक्तः विना सो इट् शुड् इट् बि भक्तं विना
आं भक्तं विना
भक्तं विना देवः च देवस्य विना भक्तः देवं विना ओके धन्यवादः
अस्तु 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 अद्य वयं दृश्यते वा अस्तु
भगिनी पेज् 106 10 एण्ड् 11 यु हेवन् डन् रैट्
आम् आम् अहं न कृतवती
विल् यु बि डूयिङ्ग् इट् भगिनी
एकनिमिष पश्यामि पुटसङ्ख्या का भगिनी
10 एण्ड् 11, page 106.
Na kritavantah bhagini.
Should we do it for homework?
Kurvantu.
Okay.
Grahapata rupena kurvantu. Adhya? दशगणानां विषये वयं पठामः प्रथमतया एकं पदं नाम किम् इति पश्यामः तत्र वाक्यम् इति पदसमूहः ग्रूप् आफ् वर्ड्स् इति भवति तत्र पदं तत्र नामपदमस्ति क्रियापदमस्ति तत्र नामपदमस्ति चेत् सुबन्तपदम् इति वदामः क्रियापदमस्ति चेत् तिङ्गन्तम् इति वदामः तत्र सुबन्तम् इति अस्ति तत्र सुप् योगः अन्तं सुबन्तम् इति भवति अपि तिङ्गन्तम् इति तिङ् योगः अन्तं तिङ्गन्तम् इति भवति तत्र ये प्रत्ययाः प्रातिपदिकेभ्यः तत्र आगच्छन्ति इति अस्ति ते सुप् प्रत्ययाः इति वदामः तत्र ये प्रत्ययाः प्रातिपदिकेभ्यः आगच्छन्ति ते सुप् प्रत्ययाः तत्र प्रातिपदिकं योगः प्रत्ययः नामपदं भवति यथा कृष्णः योगः कृष्ण अत्र कृष्ण इति आगन्तव्यं तत्र कृष्ण कृष्णयोगः आह इति सुप्रत्ययः कृष्णाः इति भवति तत्र प्रथमाविभक्ति बहुवचनं भवति
भगिनि सारी ऐ एम नॉट फॉलोइंग भगिनि या सेम हियर ऐ कांट आई मीन ऐ एम नॉट एबल टू ग्रास्प एनीथिंग
अस्तु अस्तु अत्र पदमित्यस्य टु ग्रूप्स् सुपन् नामपदमिति अस्ति क्रियापदमिति
क्रियापदमिति अस्ति
किल
एकं
पदमस्ति चेत्
क्रियापदं
भवितुमर्हति नामपदं भवितुमर्हति तस्य नाम तत्र नामपदमस्ति चेत् सुबन्तमिति वदामः क्रियापदमस्ति चेत् तिङन्तमिति वदामः
ओ नामपदम् इस् द सब्जेक्ट् राइट् आफ् द सेंटेंस नाउन आफ् द सेंटेंस
नाउन
सो द नाउन आफ् द सेंटेंस इस् कॉल्ड सुबन्तम्
वी आर नॉट टॉकिंग अबाउट सेंटेंसेस भगिनी because even if you say saha balakam saha balakena saha kridati then balakena will still be namapada
what is subantam bhagini
different word for namapada that's all
okay
It's just like a fancy word to say that. It means the same thing, no difference. Tata subantam iti sup yoga antam subantam. Tata kimasti ante sup iti asti chet subantam. Api तिङन्तं तत्र तिङ् इति अन्ते अस्ति चेत् तिङन्तम्
भगिनी केन् यु गिव् प्लीस् गिव् एन् एक्साम्पल् फार् द सुबन्तं सुप् प्लस् अन्तं
नामः
इन् रामः मह हेस् द अन्तम् So, which is the sup part? The Rama part or Ra?
I'll explain that. तद् वयं पश्यामः भगिनि तत्र किम् अस्ति चेत् प्रत्ययाः अत्र नाम ये प्रत्ययाः नाम तत्र रामः विभक्तिं वयं वदामः किल रामः रामौ रामाः इति तत्र वयं तस्य प्रत्ययान् वयं लिखितवन्तः किल तत्र इति अस्ति चेत् एतदेव प्रत्ययाः भवन्ति अस्तु
आं भगिनि
तत्र आह इति अन्ते अस्ति तत्र कृष्ण योगः आह कृष्णाः इति भवति किल तत्र अन्ते आह इति अस्ति तदेव सुप्रत्ययः तत् तिङ् प्रत्ययाः अपि सन्ति, तत्र ये प्रत्ययः धातुभ्यः आगच्छन्ति ते तिङ् प्रत्ययाः. ततः तत्र धातुः योगः तिङ् प्रत्ययः क्रियापदं भवति, यथा अस् योगति अस्ति इति भवति. तत्र तिङ् प्रत्ययः लकारं निर्दिशति, तत्र अस्ति इति अस्ति, तत्र ति इति तिङ् प्रत्ययः भवति. अस्तु, इदानीं धातुः योगः.
Padmini, could you repeat the last part again from that? Suprathyaya and Ting Pratyaya, how you're separating it out. What does that mean, Padmini, Suprathyaya?
You're breaking like the word into pieces.
Okay.
So you're saying Pratipadikam and you, so if we have Krishnaha, you're saying it's the Pratipadikam Yoga something.
Mm-hmm.
Okay. So we know the Pratipadikam, that's Krishna.
Mm-hmm.
So what do we call Aha? Aha is mm-hmm. called Supratyaha. What
okay.
do we add on to the Pratipadikam?
To make the Namapadam.
The Namapadam in that Vibhakti.
Okay.
And Vachana.
Okay.
And it will change for each Vachanam and Vibhakti.
So Bhagini, basically we are the noun Namapadam, we are breaking it up in, to see how it is formed in each Vibhakti.
Oh.
And similarly, Tirantam is the Kriyapadam, the way we break it up and see how all verbs are broken up and made.
So like that, okay. we're breaking it up as Dhatuhu plus something, that the something is Ting Pratyaya.
Yeah, okay.
We'll see examples of this and it'll be easier. Tatra, Dhatuhu Yoga Ting Pratyaya. We'll focus more on Ting Pratyaya today and then we'll see the others. Astu. Tatra, Dhatuhu Yoga Ting Pratyaya Kriyapadam Asti. दातवः विषये तत्र द्विसहस्रदातवः सन्ति, प्रायः द्विसहस्रदातवः सन्ति. तत्र विभागद्वयमस्ति, परस्मैपदिनः सन्ति, आत्मनेपदिनः सन्ति. तत्र परस्मैपदिनः पठति, क्रीडति, गच्छति, आगच्छति इति भवति. आत्मनेपदिनः वर्तते, शेते इति भवति. तत्र ये धातवः उभयोः पदयोः प्रयुज्यन्ते, तत्र करोति, कुरुते इति भवति. परस्मैपदी रूपमपि अस्ति, आत्मनेपदी रूपमपि अस्ति. तत्र ते तत्र उभय इति आगन्तव्यम्, उभयपदिनः भवन्ति. अस्तु, तत्र उभयपदिनः इति भवति. अत्र प्रश्नाः सन्ति वा
भगिनी? दिस् अ टैपो, यु हेव् इट् एस् अभयपदिनः.
दट्स् व्हाट् आई सेड्.
व्हाट् इस् द लास्ट् सेंटेंस भगिनी? व्हाट् डस् दैट मीन्?
ये धातवः उभयोः पदयोः प्रयुज्यन्ते ते उभयपदिनः. तत्र इफ् इट् इस् हेस् अ परस्मैपदीरूपम् एण्ड् अन् आत्मनेपदीरूपम्, देन् इट् इस् उभयपदि धातु. इदानीं प्रत्ययस्य विषये पठामः. तत्र प्रत्येकस्य लकारस्य अष्टादश तिङ्प्रत्ययाः. सो फर् ईच् लकारः द हैयेस्ट् नम्बर् आफ् प्रत्ययास् यु केन् हेव् इस् 18. सो यु हेव् त्रयः पुरुषाः, प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः, एण्ड् त्रीणि वचनानि, एकवचनं, द्विवचनं बहुवचनं तत्र इफ् यु मल्टिप्लै दट् यु हेव् नवप्रत्ययाः प्रस्मैपदिनः तथैव आत्मनेपदिनः कुर्मः चेत् अष्टादश प्रत्ययाः सन्ति. अत्र प्रश्नाः सन्ति वा?
Sorry, but can you repeat that? So you said you have three Purushaha and three Vachanam. I followed until then.
Three Purushaha and three Vachanam. So if you multiply that,
you get Nava Pratyayaha.
If you make a table of all the Rupas, you have Madhyama Purushaha. You have a 3x3
right.
Box, right?
So
on one side you'll have the Purushaha, one side you'll have the Vachanani. So if you count all the squares, so each square will have one pratyayaha, will have one different pratyayaha. Okay, so then you'll have 9, right?
Right.
So this is for parasmaipadi dhatu.
So oh, then karuti, for that. Okay.
This is for karuti. Now, what about kuruti? So it will have the same 9x9. So
okay,
you'll have to do 9 times 2.
Ah, okay, got it.
Which
okay
is 80.
Okay, thank you.
प्रश्नाः सन्ति वा
भगिनि? वन् क्वश्चन् सारी, प्रत्ययः वेन् यु सेम् प्रत्ययः ऐ कीप् थिङ्किङ्ग् अबौट् दट्
प्रत्ययः वित् लैक् शत्रुप्रत्ययः
रैट्
या सो प्रत्ययः विल् जस्ट् कालिङ्ग् इट् प्रत्ययः फर् नौ इट् केन् बि कन्फ्यूसिङ्ग् बिकास् रैट् नौ प्रत्ययः फर् टु अस् मीन्स् लैक् शत्रुप्रत्ययः कुर्वन् बट् दिस् आल्सो वि काल् अस् प्रत्ययः.
Oh, okay. So this is a different meaning.
So be careful. This has a different meaning than the Kshatri
Pratyaya. Oh, okay. But same, is it the same spelling?
Is it like spelling? An ending, word ending or something, Bhagini, here? Pratyaya?
It's not... Can you say that again, Bhagini?
The usage of like thing Pratyaya, would it mean like it's a ending kind of? Pratyaya means ending, ends with, or something like that. Is it something like the usage?
It always has to do with the end, but I'm not sure if it means that beginning.
Okay.
Idanim dhatu rupani. सर्वेषां धातूनां समानानि रूपाणि समानानि न भवन्ति. सो फार् एक्साम्पल् इफ् यु लुक् अट् पठति, पठति पठतः पठन्ति, पठसि पठतः पठतः, पठामि पठावः पठामः इति रूपाणि भवन्ति. परन्तु इफ् यु लुक् अट् लैक् करोति और् ददाति, देर् फार्म्स् विल् बि टोटलि डिफ्रेण्ट्, रैट्?
The suffix you mean is different, Padme.
What do you mean the suffix?
So, instead of karoti, it's kuru, like that.
Not like that. I mean like the way you conjugate it, the way you say the forms. Like, they like change, right, Pagini? If not the word itself, the word will change for every kriya padam. But just like when you say the vibhaktis, you can like write the pratyaya like aha, au, aha, au, like that. If you also write one out for patati, so patati, so ti, like if you write it out, if you use that for karoti, those will not be the right forms.
Right.
So I'm saying the forms are different for them. So, each dhatu will not have the same form. For example, you look at patati, krinati, asti, that will be totally different. Dadati, that will be different. Nrityati, apnoti. These will have different forms, right? All of these. Patati, krinati. So, we said dhatu plus thing pratyaya is the kriyapada, right? That's what you said. Dhatu yokah ting pratyah kriyapada. So, but what the... So, ting pratyaha, so we have the dhatu, dhatu, that is the like the mula shabda, that is like the root, that's what you like make all the forms from. This will tell you what lakara it is in, because ting pratyaha have like tu, then you'll know it's lotakaraha. If you have ti, you'll know it's, but it will change each time, but you will know what the lakara is based on the ting pratyaha. But you also have something called vikarna pratyaha. So we'll see all these in detail. What is the dhatu, what is vikarna pratyaha, and what is ting pratyaha. But just put it into your head that prakriya padam, you break it into three parts. You have dhatu, you have vikarna pratyaha, you have ting pratyaha. Astu? Sorry, the plus sign is missing, but you have the dhatu, you have vikarna pratyaha, you have ting pratyaha. We'll be looking at these in a moment. But one more thing. Bhinnanam dhatunam vikarna pratyaha bhidyante. That means, for different dhatus, the vikarna pratyaha is different. So, because the vikarna pratyaha is different, the forms are different. We'll see examples of this. So, if two kriya, if two verbs have the same vikarna pratyaha, their forms will be the same. Okay, I get this is confusing. So we'll look at examples because I think it'll make it easier. So we'll look at the easiest one. Patati. Asta. So we're saying we're going to make it into three groups. Asta. We're going to make it into pat, the dhatu.
Pat. Yoga, a, yoga, ti.
We actually did this last week, so people
who remember, okay.
This should be easy.
So a is the vikarna pratyaya.
This is the dhatu. A is the
vikarna pratyaya. T is the thing.
T is the ting
pratyaya.
Astu. I didn't put it as. So, dhatu. So, is there a question in this? So, how you like, you first write the dhatu and then you put the ting pratyaya. That will be the easiest. Dhatu you can find out, and then you can easily find out the ting pratyaya. It will just be like ti, tu, something like that. And then with that, you will find the vikarna pratyaya. So,
the vikarna pratyaya says ganaha, right? That's what you said last time.
Yes. So, dhatuhu. Artham nirdeshati. So this shows the meaning. The dhatu shows the meaning. How? Because but wherever you use it, it has something to do with study, right? Patatu, you please study. Saha patati, he is studying. Vayam patamaha, we are studying. It always has something to do with studying or reading, whichever it may be. So that is why that it is always derived from that same dhatu, right? Because of that, the dhatu shows the artham. Now the vikarna pratyaya. Vikarna pratyaya shows the ganaha. Ganam is. So we astu, and then ting pratyaha kim nirdeshati
lakaraha.
lakaram.
For people who were here last week, this should be easier because we talked about the dashakanaha. So you have ganaha nama, there are just 10 groups of kriyapadams. So you have a bunch of dhatus and you've organized them into 10 groups. It's like if you have a bunch of flashcards and they belong to like animals, food, if you like group them like that, but they're all words, right? Like that, these are all kriyapadams and you're putting them together by their vikarna pratyaha. And if you have patati and khadati, those both have the same vikarna pratyaya. Khad yoga a yogati. Those have the same vikarna pratyaya. So they will have the same forms. If they have the same vikarna pratyaya, then the they have the same forms. Asta? Are there any questions with patati? So we have dashakanaha. Asta. So first ganaha is called Bhuadi ganaha. So Pratamaha ganaha asti Bhuadi ganaha. That why is it called Bhuadi ganaha? So the first dhatu in Bhuadi ganaha is Bhu dhatu. So it is called Bhuadi ganaha. So Bhu itiyeva ityadayah dhatavah bhavati ityadini kriyapadani tatra bhavanti. Tatra in Bhuadi ganaha the vikarna pratyaya will always be a. Astu. For example, khadati, patati, kridati, vadati. These are all in Bhuadi ganaha and they all have vikarna pratyaha a. Astu. Prashna santiva. Yes, so Brinda Bhagini, can you split kridati into like the three sections we did? Like dhatu, vikarna pratyaha, ting pratyaha.
Krida dhatuhu, a kridhatuhu, a vikarna pratyaha, ti ting pratyaha.
Samichina. Lakshmi Bhagini, can you do it for vadati?
Vad dhatu, a vikarna pratyaha, ting ti ting pratyaha, vadati.
Samichina. Are there any questions on Bhuadi ganaha?
Bhagini, Bhuadi ganaha is for both Atmanepadi and Parasmaipadi dhatu. Is it yes or no, Bhagini? I didn't hear you.
Yes, Bhagini.
Yeah. Yes. Can we have an example with Atmanepadi as well?
Vartate.
How do we split it?
Here it will change, but you'll have with yogaha a yogahati.
So vrit yogaha a yogahati. Okay. So instead of t, it becomes te as the tigantam pratyaya, right?
Ting pratyaya.
Okay.
Bhagini?
Uh-huh.
So when you say that when they have the same vikarna pratyaya, the forms will be same, what do we mean by that, Bhagini, if we are comparing a Parasmipadi and Atmanipadi form?
There will have changed. So what I'm saying is, you have like khadati, all the parismaipadi verbs in bhuvadiganah, the form won't change. खादति खादतः खादन्ति खादसि खादतः खादत खादामि खादावः खादामः सेम् फर् पठति पठति पठतः पठन्ति पठसि पठतः पठत पठामि पठावः पठामः बट् फर् वर्तते वर्तेते वर्तन्ते वर्तसे वर्तेथे वर्तध्वे वर्ते वर्तामहे सारी ऐ मस्ट् हव् देम् बट् इट् विल् हाव् द सेम् फार्म्
Okay, so within that grouping of Atmanepadi, they will be the same, and then within the grouping of Parasmanepadi, they will be the same.
Any questions in Bhuvadiganah? Or anything we've done until now?
No, Bhagini.
So we'll look at the second one. The second one is called Adadigana. Dutiyah Ganahasti. So why is it called Adadihi? The first verb there is the first dhatu is ad. But here it will change. Atti ityati. Hoping to fit. Okay. Yeah, but I need. Atra Vikarana Pratyayaha Kimasti. अत्र विकरणप्रत्ययः नास्ति सो इन् दिस् ग्रूप् देर् इस् नो विकरणप्रत्ययः तत्र उदाहरणानि यु विल् हाव् अस्ति अस् Asti, you'll have Hanti, Hanti, and like this you'll also have Atmanepadi. You'll have As, you'll have Shete. That is, one second, that is Shidhatu. So here, as Yogahati, you have no space for Vikarna Pratyaha. There is no Vikarna Pratyaha in Adadikanaha. Astu? So in this Ganahan there is no Vikarna Pratyaha. Tatra Han Yogaha Ti. That is all. There is no Vikarna Pratyaha. No a. Ashto.
Ambagini.
So, we'll do the third one. So, third one is Juhotyadi Karnaha. So, Juhotyadi Karnaha, Tritiyaha Karnaha. अस्ति हो धातुः इति एकनिमिषम् अस्तु हो एव धातुः हो इत्यादयः धातवः जुहोति तत्र जुहोत्यादिकनः जुहोति इति प्रथमः अस्ति अत्रापि विकार नास्ति विकरणप्रत्ययः नास्ति सो हौ विल् वि फिगर् औट् इफ् वि हेव् अ वर्ब् एण्ड् वि सी देट् इट् डज़न्ट् हेव् अ विकरणप्रत्ययः हौ डु यु नो इफ् इट्स् अदादिकनः जुहोत्यादिकनः रैट् देट्स् द क्वश्चन् देट् विल् हेव् सो हौ विल् नो इस् We will see the Dvitvam. So what is Dvitvam? Dvitvam is when we have like the Dati. So you see the same letter appears twice. The and the. That is called Dvitvam. This is, you can also, Dvitvam is also when you have like Bi Bheti. You have Bi Bheti. This also counts. This is also Dvitvam. Bibheti is also Dvitvam. So if it has Dvitvam, then it is Juhotyadikanaha. I won't say it always has Dvitvam, but if it has Dvitvam, then it's Juhotyadikanaha. Without Novikarna Pratyaha. Asta.
What is Dvitvam, Bhagini? Can you please repeat?
Dvitvam is when we have the same letter twice. Even if it's Mahapranaha, or alpa pranaha, if we have the same letter, if we have bibhe, one is alpa prana, one is maha prana, but it's the same sound, right? Which is maha prana
okay.
and alpa.
Okay, same sounding or same letters. Okay.
Bibheti. It is the be, which is alpa prana and maha prana, right? So if it's the same sound, then it is called dvitva. अस्तु अत्र प्रश्नाः सन्ति वा अस्तु
सो भगिनी यु सेड् द फर्स्ट् वर्ड् इस् जुहोति दट् डज़न्ट् हेव् टु लेटर्स् टुगेदर् रैट्
Yes, I'm saying we can find out by Dvitvam, but it always doesn't have Dvitvam. Doesn't mean everything in that will have Dvitvam.
Okay.
So this is... Like this, there are lots of examples. So, Chaturtaha Ganaha. Chaturtaha Ganaha Kim Divadihi. So why is it named Mrivagrihi Div Ityadeha Datavaha? Tatraha divyati itadini kriyapadani. Atra vi asti atra. Astu. विकर्णप्रत्ययः किम् अस्ति? विकर्णप्रत्ययः अस्ति य. अस्तु. तत्र नश्यति
Bhagini, can you split and show how we get the Vikarana Pratyaya as ya in Divyati?
So in Divyati we have one second, I'll do it up here. So here have Divyati. So you know that the Dhatuhu is Div. Then you know the Ting Pratyaya is Di. So then you know Div, Ya, Di, Divyati. When you do Sandhi, you get E Karaha, but you can find out that the Vikarna Pratyaya is Ya. Prashna Santiva. Asta. Hiranim. Tatra Nashyati. Rityati. तत्र आत्मने परिक्रियापदानि अपि सन्ति मन्यते विद्यते इति इति भवन्ति अस्तु अत्र प्रश्नाः सन्ति वा
नास्ति भगिनि
अस्तु विल् डु अ रिव्यू सो वादिगणः तत्र खादति पठति क्रीडति वदति इति इत्यादयः क्रियापदानि भवन्ति अपि विकर्णप्रत्ययः अस्ति अ अस्तु द्वितीयः गणः अस्ति अदादिगणः तत्र विकर्णप्रत्ययः नास्ति तत्र द्वितीयः अपि द्वितीये अपि तृतीये गणे विकर्णप्रत्ययः नास्ति तत्र अदादिगणः तत्र उदाहरणानि सन्ति अस्तातुः अपि हन्दातुः अस्ति हन्ति इति भवति अनन्तरं जुहोत्यादिगणः तत्रापि विकर्णप्रत्ययः नास्ति परन्तु तत्र द्वित्वम् अस्ति वा इति दृष्ट्वा वयं ज्ञातुं शक्नुमः सर्वदा द्वित्वं न भवति परन्तु अस्ति चेत् जुहोत्यादिगणे भवति अनन्तरं चतुर्थः गणः दिवादिगणः अस्ति अत्र विकर्णप्रत्ययः अस्ति य तत्र उदाहरणानि अस्ति नश्यति तत्र नश् योगः य योगः ति इति भवति. तत्र नश् धातुः य इति विकर्णप्रत्ययः, ति इति तिङ्प्रत्ययः. अनन्तरं नृत्यति, नृत्यति इत्यत्रापि विकर्णपतिः विकर्णप्रत्ययः अस्ति य. तत्र आत्मने आत्मनेपदी उदाहरणानि अपि सन्ति, मन्यते, विद्यते इति. अस्तु, इदानीं पञ्चमं गणं. स्वादिगणः. We'll only do 5 today because for homework, do the 106th page, the 10th and 11th exercise, and become confident in these. So you don't have to memorize the forms and all, but become familiar with like bhuadi. First is bhuadikanaha, adadikanaha, chuhutyadikanaha, divadikanaha, swadikanaha. Become familiarized with this and remember the rule for vikarna pratyaha, because next week I think we'll be able to finish the last 5. So if we do that, then next week we'll have a really big exercise for finding what each one is, and I would prefer that some of the verbs you can look up in Ashtadhyayi, but I'd prefer that I'll have given the dhatu. I would prefer if you like just look at the dhatu and try to see what the vikarna pratyaya is. I don't think in Ashtadhyayi they actually give you the vikarna pratyaya. Maybe they do, but with the vikarna pratyaya, try to see which gana it is in. You can do it, like you can search up in Ashtadhyayi after you did the exercise. But even if you make a mistake, it's okay. Just come to class and we can all figure it out. Astu. It's hard, but if it's like something like Juhotyadi Ganaha and Adadi Ganaha, you can search it up, because these are hard to see which one it is in. Adadi Ganaha or Juhotyadi Ganaha. We'll also have another challenge between Bhuadi Ganaha and the sixth one actually. Those two will be similar. So become familiarized with these 5 so that when next week when we learn the last 5, you can become familiarized with that and do the exercise. Astu. So let's do Swati Ganaha. So Swati Ganaha Su Dhatuh isti Sunoti. अस्तु, तत्र विकर्णप्रत्ययः अस्ति, न प्रत्ययः अस्ति. अत्र किमस्ति विकर्णप्रत्ययः अस्ति, तत्र अत्र नो इति भवति. नो उदाहरणानि किं भवति, उदाहरणानि चिनोति इति अस्ति, अस्तु, आप्नोति, चिनोति, शक्नोति. ऐ एम् नाट् रिमेम्बरिङ्ग् एनी आत्मनेपदी, बट् ऐ एम् श्यूर् देर् आर् आत्मनेपदी. सो आप्नोति. And then chi for chinoti. Asta. So I'll send the karapatram for these five and how to like some examples. I'll send the like dev yoga ayoga ti for some examples. So if we have like kadati kad yoga ayoga ti, I may do it for the first two. For now, don't worry about the atmanepadi. We'll focus more on parasnepadi. Asta.
Sunni, what is the meaning of sunoti?
I don't remember on the top of my head, Bhagini. One second. Sunoti.
So the dhatu will be su, right? Su. No,
I think it means like extract atwa press out.
Okay.
Asta. So we've learned the first five. Do you want me to send the karapatram for the last five, or shall we do it in class?
So that you can do it in class, Bhagini.
Okay. So for the ones you know the first, just practice that. Just for the verbs you know, like nashyati, rityati, try to memorize the dhati. I like highlight the verbs, you can try to memorize the forms. So, for like bhuadi kanaha, that should be really easy. For parasnipati. For adhati kanaha, memorize astatuhu. For juhotyadi kanaha, these are the most common verbs. And the simpler ones. Jityati. Here, maybe apnoti. I'll have to see. Or chinoti. And to memorize these, you can look up in Ashtadhyayi just the latlakara. Asta? Asta. Dani Shanti Mantram Badamaha. Radha Bhagini?
Haan Bhagini.
ॐ सहना भवतु ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरि ॐ श्रीगुरुभ्यो नमः हरि ॐ
धन्यवादः भगिनी सर्वेभ्यो नमः
धन्यवादः
धन्यवादः